परिचयः विकिपीडियायाः स्वशिक्षाविभागे स्वागतम्। विकिपीडिया बहूनां सहयोगेन निर्मितः कश्चन विश्वकोशः। भवानपि अत्र स्वीयं योगदानं कर्तुमर्हति, तदर्थम् इदं शिक्षणम् उपकरोति। लेखानां शैलीविषये, सामग्रीणां च विषये अत्र मार्गदर्शनं प्राप्यते। विकिपीडिया समाजस्य नीतिनियमानां विषये च अत्र ज्ञास्यते। इदं प्राथमिकं शिक्षणं। प्रयोगपृष्ठम् इति यद्वर्तते तत्र अभ्यासः कर्तुं शक्यः। अत्र दोषाः भवन्ति चेत् न कापि बाधा, अतः भवान् यथेच्छं लेखितुम् अर्हति। अधुना लेखसम्पादनस्य अभ्यासः भवतु।